जन्मदिनमिदम् ऐ प्रियसखे शन्तनोतु ते सर्वदा मुदम् प्रार्थयामहे भवशतायुषी ईश्वरः सदा त्वां च रक्षतु पुण्यकर्मणा कीर्तिमर्जय जीवनं तव भवतु सार्थकं जन्मदिनमिदम् ऐ प्रियसखे शन्तनोतु ते सर्वदा मुदम् सर्वदा मुदम्।